ॐ श्रीगुरुभ्यो नमः हरिः ॐ हिरण्यवर्णाम् हरिणीम् सुवर्णरजतस्रजाम्
चन्द्राम् हिरण्मयीम् लक्ष्मीम् जातवेदो महावह
ताम् महावह जातवेदो लक्ष्मीमनपगामिनीम्
यस्याम् हिरण्यम् विन्देयम् कामस्वम् पुरुषानहम्
अश्वपूर्वाम् रथमध्याम् हस्तिनादप्रबोधिनीम्
श्रियम् देवीमुपह्वये श्रीर्मा देवी जुषताम्
काम् सोऽस्मिताम् हिरण्यप्राकारमार्द्राम् ज्वलन्तीम् तृप्ताम् तर्पयन्तीम्
पद्मे स्थिताम् पद्मवर्णाम् त्वामिहोपह्वये श्रियम्
चन्द्राम् प्रभासाम् यशसा ज्वलन्तीम् श्रियम् लोके देवजुष्णामुदाराम्
ताम् पद्मिनीम् शरणमहम् प्रपद्ये लक्ष्मीर्मे नश्यताम् त्वाम् वृणे
आदित्यवर्णे तपसोऽधि जातो वनस्पतिस्तव वृक्षोऽथ बिल्वः
तस्य फलानि तपसानुदन्तु मायान्तरायाश्च बाह्याः लक्ष्मीः
उपैतु माम् देवसखः कीर्तिश्च मणिना सह
प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन् कीर्तिवृद्धिम् ददातु मे
क्षुत्पिपासामलाम् ज्येष्ठामलक्ष्मीर्नाशयाम्यहम्
अभूतिमसमृद्धिम् च सर्वानिर्नुद मे गृहात्
गन्धद्वाराम् दुराधर्षाम् नित्यपुष्टाम् करीषिणीम्
ईश्वरीवम् सर्वभूतानाम् त्वामिहोपह्वये श्रियम्
मनसः का बबाकूतिम् वाचः सत्यमसीमहि
पशूनागुम् रूपमन्नस्य मयि श्रीश्रयताम् यशः
कर्दमेन प्रजा भूता मयि सम्भव कर्दम
श्रियम् वासय मे कुले मातरम् पद्ममालिनीम्
आपसृजन्तु स्निग्धानि चिक्लेतवस मे गृहे
निज देवीम् मातरग्रश्रियम् वासय मे कुले
आर्द्राम् पुष्करिणीम् पुष्टिम् सुवर्णाम् हेममालिनीम्
सूर्याम् हिरण्मयीम् लक्ष्मीम् जातवेदो महावह
आर्द्राम् यःकरिणीम् यष्टिम् पिङ्गळाम् पद्ममालिनीम्
चन्द्राम् हिरण्मयीम् लक्ष्मीम् जातवेदो महावह
ताम् महावह जातवेदो लक्ष्मीमनपगामिनीम्
यस्याम् हिरण्यम् प्रभूतम् गावो दास्यो स्वान् विन्देयम् पुरुषानहम्
यः शुचिः प्रयतो भूत्वा युहुयादाद्यमन्वहम्
श्रियः पञ्चदशत्यञ्च श्रीकामः सततम् जपेत्
आनन्दः कर्दमश्चैव चिक्लेत इति विश्रुताः
ऋषयस्ते त्रयः प्रोक्ता स्वयम् श्रीरेव देवता
पद्मासने पद्ममूरु पद्माक्षे पद्मसम्भवे
त्वम् माम् भजस्व पद्माक्षी येन सौख्यम् लभाम्यहम्
अश्वदायी च गोदायी धनदायी महाधने
धनम् मे जुषताम् देवी सर्वकामार्थ सिद्धये
पुत्र पौत्र धनं धान्यं हस्तस्वाजा विगोरथम्
प्रजानां भवसि माता आयुष्मन्तं करोतु माम्
चन्द्राभां लक्ष्मीमीशानां सूर्याभां श्रियमीश्वरीं
चन्द्रसूर्याग्निवर्णाभां श्रीमहालक्ष्मीमुपास्महे
धनमग्निर्धनं वायुर्धनं सूर्योधनं वसुः
धनमिन्द्रो बृहस्पतिर्वरुणं धनमश्नुते
वैरते यसोमं पिब सोमं पिबतु वृत्रः
सोमं धनस्य सोमिनो मह्यं ददातु सोमिनी
न क्रोधो न च मात्सर्यं न लोभो नाशुभामतिः
भवन्ति कृतपुण्यानां भक्तानां श्रीसूक्तं जपेत् सदा
वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युताः
रोहं तु सर्वबीजान्यव ब्रह्मद्विषोदयैः
पद्मप्रिये पद्मिनि पद्महस्ते पद्मालये पद्मदलायताक्षी
विश्वप्रिये विष्णुमनोनुकूले त्वत्पादपद्मं मयि सन्निधत्स्व
या सा पद्मासनस्था विपुलकटितटी पद्मपत्रायताक्षी
गम्भीरावर्तनाभिस्तनभरनमिता शुभ्रवस्त्रोत्तरीया
लक्ष्मीर्दिव्यैर्गजेन्द्रैर्मणिगणखचितैः स्नापिता हेमकुम्भैः
नित्यं सा पद्महस्ता मम वसत् गृहे सर्वमाङ्गल्ययुक्ता
लक्ष्मीं क्षीरसमुद्रराजतनयाम् श्रीरङ्गधामेश्वरीं
दासीभूतसमस्तदेववनितां लोकैकदीपाम्बुराम्
श्रीमन्मन्दकटाक्षलब्धविभवब्रह्मेन्द्र गङ्गाधराम्
ॐ त्रैलोक्यकुटुम्बिनीं सरसिजां वन्दे मुकुन्दप्रियां
सिद्धलक्ष्मीर्मोक्षलक्ष्मीर्जयलक्ष्मी सरस्वती
श्रीलक्ष्मीर्वरलक्ष्मीश्च प्रसन्ना मम सर्वदा
वराङ्कुशौ पाशमभीतिमुद्रां करैर्वहन्तीं कमलासनस्थाम्
बालार्ककोटिप्रतिभां त्रिनेत्रां भजेऽहमम्बां जगदीश्वरीं ताम्
सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधके
शरण्ये त्र्यम्बिके देवि नारायणि नमोऽस्तु ते
महादेव्यै च विद्महे विष्णुपत्न्यै च धीमहि तन्नो लक्ष्मी प्रचोदयात् महादेव्यै च विद्महे विष्णुपत्न्यै च धीमहि तन्नो लक्ष्मी प्रचोदयात् महादेव्यै च विद्महे विष्णुपत्न्यै च धीमहि तन्नो लक्ष्मी प्रचोदयात्।